अस्य आरम्भं कुर्मः. आम्, ॐ सहनावतु
सहनौ
गुणतु
तेजस्विनावधीतमस्तु ॐ शान्ति शान्ति.
अहं गायामि, कृपया अनुसरन् गायन्तु. वयं बालि
लिरिक्स् नास्ति अत्र.
न, लिरिक्स् नास्ति. अहम् एकं पुस्तक शिशुस संस्कृतं पुस्तके पठामि. वयं बालका भारतभक्ताः.
वयं बालका
वयं बालिका भारतभक्ताः.
वयं बालिका भारतभक्ता.
वयं हि सर्वे भारतभक्ताः.
वयं हि सर्वे भारतभक्ताः.
पृथ्वीं स्वर्गं जेतुं शक्तः.
पृथ्वीं स्वर्गं जेतुं शक्तः. जेतुं शक्तः.
वयं बालका भारतभक्ताः.
वयं बालका भारतभक्ताः.
वयं सुधीरः वयं सुवीरः.
वयं सुधीरः वयं सुवीरः.
क्लिष्टमानसः पुष्टशरीरः.
क्लिष्टमानसः पुष्टशरीरः.
भूरि पठामो भूरि लिखामो.
भूरि पठामो भूरि लिखामो.
कविता अस्मो जनहितनियुक्ताः.
कविता अस्मो जनयुतनि
जनहिते नियुक्ताः.
जनहितनियुक्ताः.
वयं बालका भारतभक्ताः.
वयं बालका भारतभक्ताः.
जातिधर्ममतभेदं त्यक्त्वा.
जातिधर्ममतभेदं त्यक्त्वा.
भारतवर्षं पूज्यं मत्वा.
भारतवर्षं पूज्यं मत्वा.
भगवद्भावं हृदये धृत्वा.
भगवद्भावं हृदये धृत्वा.
भारतसेवायाम् अनुरक्ताः.
भारतसेवायाम् अनुरक्ताः.
वयं बालका भारतभक्ताः.
वयं बालका भारतभक्ताः.
अद्य विशेषः दिनमस्ति, अतः एतत् गीतं चिन्वति.
त्वा प्रत्ययः अस्ति अत्र. धन्यवादः भगिनि. कः विशेषः?
कः विशेषः भवति वदतु विमला भगिनी, कः विशेषः अस्ति अद्य?
अस्माकं भारतदेशस्य प्रधानमन्त्री लेह प्रदेशे, करेक्ट् भगिनि, गतवान् तत्र एव भगिन्याः भ्राता माता अपि वासं करोति.
लेह मध्ये न वासं करोति मम माता, मम पिता भारतदेशे वासं करोति.
भारतदेशे
अहं प्रसन्नः अस्मि अतः भारतदेशे इच्छामि. अन्य एकं गीतमस्ति,
नमस्ते सङ्गीत विलम्बेन क्षम्यताम्.
चिन्ता मास्तु भगिनी, कमला भगिनी अपि आगतवती अद्य. स्वागतं स्वागतं सङ्गीता भगिनी.
धन्यवादः.
शक्ति संभृतं युक्ति संभृतं
शक्ति
शक्ति संभृतं युक्ति संभृतं
शक्ति संभृतं युक्ति संभृतं
शक्ति युक्ति संभृतं भवतु भारतम्.
शक्ति युक्ति संभृतं भवतु भारतम्.
शस्त्रधारकं शास्त्रधारकं
शस्त्रधारकं शास्त्रधारकं
शस्त्रशास्त्रधारकं भवतु भारतम्.
शस्त्रशास्त्रधारकं भवतु भारतम्.
रीतिसंस्कृतं नीतिसंस्कृतं
रीतिसंस्कृतं नीतिसंस्कृतं
रीतिनीतिसंस्कृतं भवतु भारतम्.
रीतिनीतिसंस्कृतं भवतु भारतम्.
कर्मनैष्ठिकं धर्मनैष्ठिकं
कर्मनैष्ठिकं धर्मनैष्ठिकं
कर्मधर्मनैष्ठिकं भवतु भारतम्.
कर्मधर्मनैष्ठिकं भवतु भारतम्.
भक्तिसाधकं मुक्तिसाधकं
भक्तिसाधकं मुक्तिसाधकं
भक्तिमुक्तिसाधकं भवतु भारतम्.
भक्तिमुक्तिसाधकं भवतु भारतम् भारतम्.
शक्तिसंवृतं युक्तिसंवृतं
शक्तिसंवृतं युक्तिसंवृतं
शक्तियुक्तिसंवृतं भवतु भारतम्.
शक्तियुक्तिसंवृतं
भवतु भारतम्.
अस्तु, धन्यवादः. विमला भगिनी उक्तवती अहं किञ्चित् विषयः न पठितवन्तः अभ्यासपुस्तकस्य किं पुटे भवती उक्तवती?
त्वा प्रत्यय पञ्च फिफ्टि सेवेन् फिफ्टि सेवेन् फिफ्टि एय्ट् मीन्स् अष्ट
पञ्चाशत्
पञ्च अष्टपञ्चाशत्
अहं चिन्तितवती वयं कत्वा विषये पठितवन्तः किन्तु
एकवारं
मास्तु पुनः पठामः. सः गच्छति सः गच्छति सः पाठं पठति सः गच्छति सः पाठं पठति सः पाठं पठित्वा गच्छति सः पाठं पठित्वा गच्छति क्रियाद्वयं तत्र अस्ति. गच्छति गच्छति समाप्य तत्र त्वा
भगिनि अहं न शृणोमि.
हा
अद्य श्रुणोमि.
किञ्चित् कोलाहलमस्ति तत्र. सः शालां गत्वा पाठं पठति. गत्वा पाठं पठति, पठित्वा गच्छति. सः कार्यं कुर्वन्ति, श्रान्ताः भवन्ति. सः श्रान्ताः भवन्ति. सः ते कार्यं कुर्वन्ति श्रान्ताः भवन्ति. कार्यं कृत्वा श्रान्ताः भवन्ति. पतति, रोदिति. पतति, रोदिति. शिशु क्रीडाङ्गणे पतति, रोदनं करोति. पतित्वा रोदनं करोति. पतित्वा रोदनं करोति. खादित्वा जलं पिबति. लिखित्वा प्रेषयति. श्रुत्वा जानाति. दत्त्वा गच्छति. गृहीत्वा पतति. प्रक्षालये अत्र एकः उपसर्गः अस्ति. प्रक्षालयति, प्र उपसर्गः अस्ति. तत्र वयं य प्रत्ययः लप् उपयुज्य वाक्यं रचनां भवति एव. आगच्छति, आगत्य. प्रक्षालयति, प्रक्षालय. उत्तिष्ठति, उत्थाय. स्वीकरोति, स्वीकृत्य. आनयति, आनीय. आह्वयति, आहूय. उपविशति, उपविश्य. यदि उपसर्गः नास्ति तत्र त्वा उपयोगं करणीय. यदि उपसर्गः अस्ति ल्यप् उपयोगं करणीय. एकम् वाक्यं वयं रचनां कुर्मः. भवती एव आरम्भं करोतु.
अहं भोजनं कृत्वा पात्रं प्रक्षालयामि.
भोजनं कृत्वा पात्रं प्रक्षालयामि. अहं यदि भवती प्रक्षालयति अनन्तरं भोजनं करोति, किं कथं वाक्यं भवति?
अहं पात्रं प्रक्षाल्य भोजनं करोमि.
पात्रं प्रक्षाल्य भोजनं करोमि. धन्यवादः भगिनि. परमेश्वरन् महोदय भागं करोति वा?
वदतु
महोदय.
अहं भोजनं कृत्वा दूरदर्शनं पश्यामि.
विपरीतवाक्यमपि वदतु. अहं दूरदर्शनं पश्यामि.
भोजनं पश्यामि, अनन्तरं भोजनं खादामि.
अहं दूरदर्शनं दृष्ट्वा भानुमती भगिनि.
अहं स्नानं कृत्वा पाकं करोति.
करोमि. पाकं कृत्वा
भगिनि
क्षम्यतां न श्रुतवती, अनन्तरं भवती किं वदति? पाकं कृत्वा
स्नानं कृत्वा पाकं करोमि.
स्नानं कृत्वा पाकं करोमि. ओ पाकं कृत्वा स्नानं करोमि.
पाकं कृत्वा स्नानं करोमि.
कमला भगिनी,
I can't think of
any two verbs, kriyapadani, dvayam svikritya, aham khadami, dhavami, aham vayam karomi, aham durdash.
Ligami.
Aham durdarshan pashyami. Aham अहं भोजनं करोमि.
अहं नृत्यं करोमि, भोजनं करोमि, गीतं गायामि, अहं धावामि, अहं व्यायामं करोमि, अहं पुस्तकं पठामि, अहं स्नानं करोमि, अहं मार्जयामि, प्रक्षालयामि.
सो बेसिकली टू सेंटेंसेस वी हैव टू से.
सो फर्स्ट एक्शन इज फिनिश्ड एंड देन सेकेंड एक्शन हैपन. सो लाइक पठित्वा लिखामि, आफ्टर रीडिंग आई विल राइट, और आई एम राइटिंग. पठित्वा लिखामि, ज्ञात्वा वदामि, दट् आफ्टर् नोयिङ्ग् ओन्ली ऐ केन् ऐ विल् स्पीक्. पूजां कृत्वा अल्पाहारं स्वीकरोमि, अल्पाहारं स्वीकृत्वा विद्यालयं गच्छामि, विद्यालयं गत्वा गृहम् आगच्छामि, गृहम् आगत्य चायं पिबामि, चायं पीत्वा पठामि, पठित्वा अनन्तरं भोजनं स्वीकरोमि, ओ खादामि. सो वन् एक्शन् इस् फिनिश्ड् एण्ड् देन् यु आर् डूयिङ्ग् सम्थिङ्ग् एल्स्.
Okay,
does it give you any idea?
Yeah.
So do you want to try again?
Yeah, aham bhojan khad khad khadvan
khaditva
khad khadvami, and then jalam pibami.
अहं भोजनं खादित्वा जलं पिबामि, जलं पीत्वा अहं क्रीडामि,
अहं दूरदर्शनं
पश्यामि. ओके, संगीता भगिनी, अद्य अञ्जना भगिनी, नैना भगिनी न आगतवान्. संगीता भगिनी,
अहम् आपणं गत्वा फलानि क्रीडामि. अहम् आपणं गत्वा फलानि क्रीडामि.
फलानि
क्रीडामि, बैङ्ग्.
ओ क्रीणामि,
क्रीणामि, क्रीणामि,
करेक्ट् न?
हा क्रीणामि, नाट् क्रीडामि, सम्थिङ्ग् लैक्
क्रीडामि,
क्रीणामि.
अहं फलानि क्रीत्वा गृहम् आगच्छामि.
क्रीणित्वा, एनिवे
क्रीत्वा भगिनि, क्रीत्वा,
Kritva, is it? Kritva.
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 Kritva, not Kritva.
Kritva is different.
Kritva. Kritva.
So we can do the practice anyway.
Badmi, I want to tell one big sentence.
Mm-hmm.
I like this Kritva Pratyaya. I made mm-hmm. such a big sentence, you know, everybody liked it, but this one is a little small, can I say?
Mm-hmm. Yeah, that is when you do the big sentences, Twa is very good for that, when there is a game play.
Yeah, it's very nice actually.
Mm-hmm.
Mukta vidyalayam gatva, prarthanam krutva, patam shrutva, pidanganam gatva, kandukena kriditva, gruham gatva, kshiram pitva, gruhakaryam krutva, doradarshanam drishtva, bhojanam krutva, nidrati.
Mm-hmm.
Actually, this is small. I made somewhat big sentence also. But it is
yeah.
I can't.
So you can do 24 hours or all your life.
Yeah, that's what I told to one of my friends. You can go to Surya Mandala by like Arjuna, you can make it Namaskaram Vana.
So we like can do. Yeah. So what we can do now, we'll just go through some of the Kriyapadam, like different Kriyapadam, and you can say the Twa form. And if there is something different, then we can check it out. So, Pachati, anybody can say, just all of us, we can say.
Pachitva.
Paktva, that's why.
Paktva.
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 Mohde, Samyak Nashruvite Parmeshwa Mohde.
Is it Paktva or Paktva?
Paktva.
Paktva.
Pach Dhatu is Pach, no? Paktva. Shipati?
Kshiptva.
Okay. Sangeeta Bhagini Vadatu, Krishati. Dhatu, Krish. Krishtu.
Krishtava.
Krishtava. Ta.
Ta.
Ta. Not ta. Not ta.
Krishtava.
Bhajati.
Bhajitva.
Bhaktva.
Bhaktva.
Ja changes to ka. Bhaktva. Dharati.
Dhrutva.
Vipati. Rakshamatam vapati.
Vapati.
Vapitva.
Va normally changes to u. Uktva.
Uktva.
Vatadi. Vatadi. Vatadi.
Vapati. Uktva.
Uktva bhagini?
Uktva.
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 Vapati.
Vapati. Uktva. Uktva. Vadati. Uktva. Vahati. Udva.
1 minute.
Udva.
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 It's flying meaning comes from the beginning. I feel like that.
It's not flying, but it's a
flowing. Flow.
Sivyati.
After flowing. Sivyati. Sivitva.
Anybody else?
What?
Sivyati.
Sitva.
Shutva.
Shutva.
Shutva. Shutva. Shutva. Shutva.
Shutva.
Shutva. Shutva. Shutva. Shutva word comes from that only.
Exactly.
Shutva. Yeah.
Shutva. अर्चति
अर्चित्वा
अर्चित्वा
अर्जयति
कर्तयति
चिन्तयति
पूजयति चोरयति
चोरयित्वा
अर्पयति
अर्पयित्वा
सो पक्त्वा शित्वा कृष्ट्वा कृष्ट्वा धृत्वा त्वा ऊढ्वा ऊढ्वा क्षम्यताम् युत्वा अर्चित्वा अर्चयित्वा कर्तयित्वा चिन्तयित्वा कथयित्वा पूजयित्वा चोरयित्वा
भगिनि सेकेण्ड् वन् पक्त्वा नेक्स्ट् वन् ऐ डिड् नाट् रैट् केन् यु रिपीट्
क्षिप्त्वा
क्षिप्त्वा क्षिप्त्वा
पक्त्वा क्षिप्त्वा कृष्ट्वा पक्त्वा धृत्वा उक्त्वा ऊढ्वा स्यूत्वा अर्चित्वा अर्जयित्वा कर्तयित्वा चिन्तयित्वा कथयित्वा पूजयित्वा चोरयित्वा अर्पयित्वा
भगिनि अर्चति अर्चयति डिफरेन्स्
अर्चति अर्चयित्वा
No. Meaning, what is the difference between archati and archayati? Both are same meaning or something different, something?
No, archati is to do the archana, right? Archana.
Then archayati?
Archayati,
what? No, I am asking about the verb difference, not the this thing.
That's passive. Archati and archayati, I think it's archayati, not archayati. Is passive form of the same verb.
Okay.
Like in English, no? Passive form also is something done by me.
Mm-hmm. Understood.
So that is only, here is Archayati. Archati. Archati, Archayati. Archayati is so...
Bhagini, your voice is not audible. It's not audible.
Is it better?
Uh-huh. Share.
There's no screen sharing, no? Because I can't see any screen.
Because all the no 23 screen. Slides, those were on the website, those we have done.
Okay.
So, Bhagini told me that we have not done the tour. There must be slides. I think we have done it, but we are doing it again.
Okay.
So that's why I did not share, because we have shared it before as well. So we, I can, let me share this. Help. Okay, so we are on page
पृच्छति
गृह्णाति रोदिति उपविशति उपसर्ग न Your voice is not very loud. I can't hear you.
Bhavitya?
There is some noise as well today. I'm not sure. From somebody's mic, it might be coming. Okay, so... There is still some noise in the line. I'm not sure. Okay. Could it be? Let me just try muting one at a time. So see if there is.
I am using Bluetooth. That may be the reason.
Yes, I think it was coming from Parmeshwar Mohoday himself. So, is it better now?
Yes.
Yes.
Now I've unmuted Parmeshwar Mohoday. So, it could be something to do. So,
hello.
Hello.
Is it clear now?
Yes, my sister. Yes, thank you. Dhanyavad. So, you wanted to say something before?
No.
Okay. Dhanyavad. So, when there is a upsarga, we use lyap. So, we are just saying upavishati, upavishya, prakshalayati, prakshalaya, utishtati, utthaya, anayati, aniya, agachati, agatya, svikroti, svikritya. Avyati Ahuya. So we have also seen some of the other ones where there is va in the beginning, like vahati, vadati, vapati. They changes to uptva, uptva, udhva. And the other ones, if there is a ya, so archaitva, chintaitva, kathaitva, pujaitva, choraitva, arpaitva. Now you can try making more sentences. Now we've got a lot more verbs in front of us.
So these are all what? Adjectives?
No, verbs. Kriyapadani santi.
Now dadati is the verb and datva is also verb.
Dattva, dhanam dattva, aham santosham anubhavami. So by giving the, having given the money, I feel satisfied. So that's why one of the kriya is finished and second we are doing now. So grihitva, kesheshu grihitva, shishuhu, roditi. So patitva, shishu, roditi. Kashtam bhutva, aham pathami. Yeah, kuch bhi, anything else we can say? Kashtam bhutva, mam jnanam vardhate. Uthaya patram grihanami. Dhanam svikritya apnam gachami. Griham agatya patrani prakshalayami. Is it clear now, Bhagini?
भगिनि अहम् एकं वाक्यं वदामि. युवकः वस्त्रं स्यूत्वा धनं प्राप्नोति.
कमला भगिनि, केन् यु डू ए सेण्टेन्स् प्लीज़्?
Bhagini, can I tell?
Yes, please.
Balakah parikshayam samyak sankhyam prapnoti praptva santoshena bhavati.
Anybody else want to correct it?
My translation is not correct.
సంతోషం భవతి.
Anubhavati, that or anubhavami, that is fine, she's saying. Kamla Bhagini, puna vakyam vadatu.
I can't think of anything.
No, same one.
Which one?
The balakah parikshayam samyak sankhya prapta santoshena bhavati.
Santushta bhavati.
Santushta bhavati. Santushta bhavati.
बालिका नववस्त्रं धृत्वा देवालयं गतवती.
नो, पहले वी कैन करेक्ट दैट सेंटेंस. भगिनी उक्तवती कि प्राप्त्वा, तो प्र इज अ उपसर्ग, प्र उपसर्गः अस्ति. प्राप्ये, प्राप्ये,
प्राप्य,
प्राप्य,
सम्यक् संख्या प्राप्य संतुष्टः भवति.
ओ, प्राप्य संतुष्टः भवति.
दैट्स व्हाई आई
वाज ट्राइंग टू से.
तो नेक्स्ट संगीता भगिनी,
धनं गढयित्वा ग्रहण कुर्याम.
धनं
गढ़यित्वा ग्रहण कुर्याम। धनम काउंट द कॉइन्स देन ओनली वन शुड एक्सेप्ट इट।
सो यू आर सेइंग
काउंटेड। सो धनम गणयित्वा ग्रहण ग्रहण कुर्याम। आई एम यूजिंग विधि लिंग
ग्रहण ग्रहणम
ग्रहणम ग्रहण की ग्रहण में आई डोंट नो ग्रहणम होगा।
नो ग्रहम आर यू सेइंग ग्रहम और ग्रहणम
ग्रहण
इज काउंट 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 मनी एंड टेक इट करेक्ट
एक्सेप्ट इट। सो इट विल बी द्वितीय और
काउंट काउंट द मनी या
या
बिफोर एक्सेप्टिंग
वन शुड काउंट।
हां इदानीं मम ग्रहणं कृत्वा वदति धनं नो नो क्षम्यताम लेट मी चेक एज वेल आई एम चेकिंग द सेम कुरियाम इज करेक्ट।
ग्रहण विल बी प्रथमा और द्वितीय
ग्रहणं कुर्याम द्वितीयं
द्वितीयं ओके। तो धनं धनं गणयित्वा जित्वा ग्रहणं कुर्याम
कुर्याम ओके विच वन आई डोंट नो दिस वर्ड एक्चुअली
विधि लिंग वन शुड डू इट वन शुड काम विधि लिंग प्रथम
ओके
प्रथम
नेक्स्ट लेवल
भगिनी कैन यू प्लीज रिपीट द सेंटेंस धनं गणयित्वा
धनं गणयित्वा
कुर्याम
धनं कुर्याम ओके। सो नाउ वी कैन गो टू द नेक्स्ट थिंग रुचि वाचक शब्द ओके और डू वी वन मोर प्रैक्टिस ओके सो वी कैन डू मोर प्रैक्टिस इफ यू वांट और वी कैन मूव टू द रुचि कारक शब्द लेट मी नो रुचिवाचक शब्द विच इज लवनम चंबिरम on page 61 so I think we if you are okay I think we do need more practice with this one because all the different forms are there so let me give one English sentence and then you can do it Sainika or soldier fights after fighting soldier dies Anybody want to do that?
सैनिकः युद्ध युद्ध्वा दैकति मृतः भवति
मरणं भवति. There are many words for it.
शहीदः भवति शहीद्
भवति शहीदं भवति और मरणं भवति और पञ्चतत्त्वं गच्छति. So if we say next sentence that a singer after singing the song felt happy.
Gayika geetam gatva anandam anubhavati.
Geetva iti
geetva
geetva geetva गायिका गीतं गीत्वा आनन्दम् अनुभवति.
आनन्दम् अनुभवति. ओके. मदर् आफ्टर् वाशिङ्ग् द डिशेस् फील्स् टायर्ड्.
माता पात्रं प्रक्षालयित्वा
माता पात्रं प्रक्षाल्य श्रान्ता भवति.
पात्राणि प्रक्षाल्य
श्रान्ता भवति.
श्रान्ता भवति. ओके. सो बालकः बालकनी द बॉय आफ्टर वांटिंग चॉकलेट ही आस्क्ड फॉर मनी. बालक क्षमताम
आफ्टर गेटिंग
not grihitva, wanted. He only wanted. So he asking is assume that he is asking money from the father.
To buy chocolate he wants money. Bagni.
Balaka chokleham ichitva dhanam api चाक्लेहम् इच्छित्वा धनम् अपि इच्छति. Ishtva, no, he is right. Ich is different, yeah, you are right. Ishtva.
Ishtva mabhi suttam. Ishtva,
Ishtva. Yeah, yeah, Ishtva, Ishtva. You are right. Chokleham, Ishtva, Balaka, Chokleham, Ishtva, Dhanam, Api, Ichhati.
Ishtva and Ikshitva both are right possibly.
No, Ikshitva, Iksh means seen, I think.
Eshitva.
I think, yes, you're right. Kshamatam. I am getting the...
What? Ishtva or Eshitva? What is correct?
Eshitva.
Eshitva.
And Yoshitva. Both are correct.
Not understood.
It is
Eshitva.
So, Eshitva or Ishtva?
Okay.
So next, having a shower in cold water. Boy feels ill. So having shower in cold water or having a bath in cold water, the boy feels ill.
Balakaha shita jale snatva. Anubhavati. Kalam prapnavati.
Sheet jale natva.
Balaka. He gets fever, na? Balaka jaram prapnavati.
What prapnavati?
Jaram. Fever.
Jaram prapnavati. I'm thinking like, so he had to shower with cold water. Sheet jalena snatva.
Jalena.
Sheet jalena snatva. Jwaram prapnoti. Is that okay?
I'm bugging.
So next we can say. Buddha, after leaving everything, vanam, he goes to the forest after leaving everything behind. Buddha,
Tyaktva,
vanam,
gatavanam.
Gatavan.
So, after finding the money, the thief ran away.
Dhanam drishtva.
Chorayitva.
Davidavan.
Finding, not seeing. So, dhanam labdhva. So, Children, won it. After?
Not audible.
I think there is lots of noise, I'm not sure. Everybody can mute it unless you are speaking. So, my sentence was like after doing the competition, children won the game. So try making the sentence and then you can always unmute and say it. Anyone? So now everyone is muted.
what is sentence?
Sentence is, after doing the competition, you know, like Spardha, they won it. Taking part in the Spardha, after taking part in competition, children won the game. Is sentence clear, is it?
Spardhayam Sparditva Chatraha Paritoshikam Praptavandaha.
Oh, you could just say Jayati is to win. Jayanti.
Jitva.
Yeah, they got the trophy or something like that, but we are not saying that yet. They just won it.
It will be Ajayat or something like that.
Ajayan. Ajayan.
Ajayan.
If we are doing the past, then Ajayan. Okay, so having monkeys, having seen the fruits, they snatched it.
Bagini? Mm-hmm. Previous sentence, is translation for Balakaha. Spardha Jitva
Kritva. Oh yes, Spardhitva.
Spardhitva.
Ajayan.
Okay. Full sentence. Can you repeat full sentence? Balaka.
Balakaha Spardhitva Ajayan.
Dhanyavaad.
Spardhitva Spardhade, no? Spardhayadi Spardhade.
Spardhitva or Spardhaitva?
Spardhayadi, Spardhade. Admin is Siva.
Parmeshwar Mode is correct, possible. Spardhati, Spardhayate, Spardhitva. Spardhitva. So we have to write all these, different forms. So maybe that would be a good exercise to do all the different verbs, because there are different forms. But pat is patitva is easy. Brahm brahmitva, kreed kreeditva, dhav dhavitva, chal chalitva. Those are all easy ones. Snatva, gritva, janitva, mritva, samsitva. Samsitva.
Samsitva, Bhagini, meaning?
Samsitva. I have to check. I don't know yet. Because this is something I just... Cheshitva, like cheshta karna na, like cheshitva. Brutva, bru becomes uktva. Pach we've seen, paktva. Hri we have seen, hritva. Hritva is to take away something. Prich we have seen, Prishtva.
Prishtva.
Bhagini, Harati becomes Hrutva.
Harati, Ritva. And then Ram is Ratva. Ramati, like to enjoy something. Ramate becomes Ratva. Gachati, Gatva. So maybe it will be a good idea to write all these, and I will also try to send as much as I can in next. And then if there is some clarification, we can do within the group as well. Yeah. We can make a big list of all these.
So, Ambagini.
I think that will be a quite good exercise to do. Next, what I wanted to do was, Bhagini also mentioned, you mentioned about these Ruchi Vachak Shabdaha. Is that correct? So, Ruchi Vachak Shabdaha. Lavanasya Ruchi Lavanaha. Because it's a salty. Lavanasya Ruchihi. Lavanaha. Jambiram. Jambiram. Jambirasya ruchihi amlaha. Oh, what happened here? Jambirasya ruchi amlaha. Chaklehasya ruchihi madhuraha. Marichikayaha ruchi katuhu. Karvelakam ruchihi, karvelasya ruchihi tiktaha. Amalakam amalakasya ruchihi kashaya. Aham ekam ekam bhojanasya vastu vadami bhavtam bhavtaha vadatu tasya ruchihi kathamasti. Kadlifalasya ramasya
madhuraha. Kadlifalasya ruchihi madhuraha.
Madhuraha.
Astu. Ardakasya ruchihi
kashaya. Ardakasya ruchihi kashayaha.
Ardakam matlab?
Ginger.
Adrak.
Adrak.
Adrakasya ruchihi
kashaya.
I think it's katu.
Katu?
Katu.
Katu.
Is it tikka?
Naranga phalasya ruchihi
amla.
Katu.
Amlaha.
Kaduhu.
How do you say this? I don't know.
Shrimatam, Palanduhu Ruchihi?
Kaduhu.
Yeah.
Katuhu, I think Katuhu as well.
Katuhu.
It doesn't belong to any category.
Sometimes Madhura happy as the white onion.
Ganjuk. Grinjanasya ruchihi? Grinjanasya gajar, carrot.
Madhuraha. Grinjanasya ruchihi madhuraha.
Alukasya ruchihi?
No taste. Fika. What do you say? Fika?
No taste. Fika. What is the name of no taste?
Ruchi nasti.
Nasti.
Fika bolte hai na Hindi mein.
Kopi nasti.
Kopi nasti. Ruchi nasti tatke. Asya ruchi hi nasti. Anas phalasya ruchi hi.
Madhuram.
Amlaha. Sometimes amlaha, sometimes madhuram. Sometimes no taste.
Pakvam. Ane, ripe ka meaning kya hai?
Paktua.
Paktua is cooking, na?
Paktua.
पक्वफलं
फलानि सीन् दट् पकानि फलानि
अच्छा पकानि फलानि ओके देन् आन्ड्रं पवन् विच् फ्रूट् यू सेड्
नार् मने कोस् अनास् फलकम्
अनानास् फलकस्य फलकस् इस् करेक्ट् फलस्य रुचिः आम्लः अस्ति आम्लः अस्ति
अन्ये म्यूट् करोतु कमला भगिनी नारङ्गी फलस्य रुचिः कथम् अस्ति कः अस्ति मधुरम् अपि अस्ति आम्लम् अपि अस्ति ओ मधुरम् आम्लं च अस्ति अस्ति अस्तु अन्य एके द्राक्षाफलस्य रुचिः
द्राक्षफलस्य रुचिः मधुरम् आम्लं च अस्ति
कपिशाकं केबेज् कपिशाकं
देट् इस् डजन् फाल्
निकेति अस्तु वृन्ताकं ओबर्जीन् ब्रिञ्जल् वट् एवर् यु कोल् इट् वृन्ताकं वृन्ताकं भिण्डिका पलाण्डु आम्रं जम्बीरं नारङ्गफलं मधुकर्कटी रुचिः मधुकर्कट्याः रुचिः ब्लाक् सीड्स् इन् टु इट् वट् इस् इट् कोल्ड्
शाकान् रुचिः नास्ति फलानि आम्लः मधुर च सन्ति
पश्यतु गानेन लिखतु अनन्तरं यु केन् प्रेषयतु अनन्तरं एकं किं वदामि शाकानि इत्युक्ते शाकाभ्यः रुचिः क्षम्यतां शाकानां रुचिः नास्ति शाकानां रुचिः नास्ति इस् दट् ओके अस्तु अनन्तरं वयं किं कुर्मः okay now we can read this Bhanumati bhagini can you read the first
bhagini putrah amba kim adya kathitam bahu katu asti
नैना भगिनी केन् यु रीड् नेक्स्ट् सेण्टेन्स्
सोरि टुडे जस्ट् ऐ हव् टु लिसन् भगिनी
ओके नो
वरीस्
I just been late to him after all.
Okay, so what we can do, Kamala Bhagini and Bhanumati Bhagini, Kamala Bhagini Putra Hasti, Bhanumati Bhagini Mata Hasti. Kripya Varta Lapam Kurotu.
Haan Bhagini.
Okay, I'll start with Putra. Ambaha, Kim Adhya Kvathitah Bahu Kattu Hasti.
Tarhi पतितं मा स्वीकरोतु
क्षम्यताम् तर्हि क्वथितं मा स्वीकरोतु तक्रं प्रवेशयामि
तक्रं प्रवेशयामि
I will serve curd. Curd are missing, missing liquid curd.
Let them begin read first.
Okay. Putra, sakram bahu amlam asti amba. Amba.
Let them make
Sakram bhavan tu kevalam maduram icchati. एतत् मोदकं खादतु बहु मधुरम् अस्ति
सत्यम् अम्ब एतत् मधुरम् अस्ति
कारवेल्लस्य व्यञ्जनम् अस्ति किञ्चित् परिवेशयामि वा
मास्तु अम्बः करवेलं तिक्त भवति अह तिक्त न इच्छामि किञ्चित् लवणं परिवेशयतु
स्वीकरोतु आम्लकस्य अवलेहं किञ्चित् परिवेशयामि वा
अस्तु परिवेशयतु अम्ब आम्लकस्य रुचिः कषायः अस्ति
तर्हि जम्बीरस्य अवलेहं स्वीकरोतु
स तु आम्लः अस्ति अम्ब
भवान् तु मधुरम् एकमेव इच्छति परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि
सम्यक् सो अम्बः किम् अद्य क्वथितं बहु कटु अस्ति तर्हि तक्रं प्रवेशयामि तक्रम् अस्ति बटर् मिल्क् तक्रं बहु आम्लम् अस्ति अम्ब अनन्तरं सः सत्यम् एतत् मधुरम् अस्ति कार्वेलस्य वेल्लस्य व्यजनम् अस्ति किञ्चित् प्रवेशयामि वा सो कार्वेल्लस्य रुचिः किम् अस्ति तिक्तम् अहं तिक्तं न इच्छामि सः तिक्तं न इच्छति सः कषाय न इच्छति अनन्तरं केवलं मधुरमेव इच्छति अवलेहम् अस्ति अचार् अवलेहम् अन्य कोऽपि शब्दः अस्ति भवान् भवती अवगतं किं सर्वं डिड् यु गेट् इट् भगिनी यु आस्क्ड् मी द क्वश्चन्
हां भगिनि
अस्तु ओके सो So, this is just a sambhashan that we use it in everyday life. Parveshyatu, kashaya, tiktam. Astu, kashaya, English meaning kaha asti? Sangeeta Bhagini vadatu? आङ्ग्लभाषा कः अस्ति काषायम् अर्थः
पञ्जेण्ट् आर् बिटर् ऐ डोण्ट् नो विच् आफ् द टु ऐदर् आफ् द टु
ओके काषाय let me check with Vimla Bhagini as well. What do you think, Bhagini?
In between, that is the taste in between.
So it, are we saying it depends from person to person?
I think the words are very less to describe the, all the food.
So,
but it is not like karavellam. It is somewhat in between.
So amalakam, like you get this bitter taste in the back. I think that is what it is.
Yes.
Aftertaste that you get.
But finally, if you take water,
when
it's
you,
very
sweet. Yes, exactly.
Water after that is sweet.
So, karvelakam, that is bitter anyway, tiktah. All others are clear. I think it was kashaya and tiktah. They are the one confusing ones. So, anyakam. We have done ईदृशः दन्द विरुद्ध शब्दः अपि अपेक्षया यत्र तत्र
भगिनी वी हेव् टु डु दिस् रिलेशन्स् वन् नो अबौट् दट् रुचि वाचकः रिलेशन्स् मातुलः
मातुलः
No.
A couple of pages
above this.
Just one page above. Yes.
I think, okay, we can try making a few sentences. Next week. I think that because it will take a lot more time to make sentences, everyone. If that's okay. So we'll have this twa, more of twa and more of this. One thing I wanted to cover very quickly was ataha and yataha. I think those are the small subjects and we can do very quickly. So, arogyam samyak nasti, ataha saha chikitsalayam gacchati. Ataha. Arogyam samyak nasti, ataha saha chikitsalayam gacchati. Or you could say, saha chikitsalayam gacchati, yataha arogyam samyak nasti. सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति विद्युत् नास्ति अतः दीपः न ज्वलति दीपः न ज्वलति यतः विद्युत् नास्ति अतः नियतः अतः हेन्स् यतः बिकोस् something along those lines. Ataha samyaha jataha ataha atra samapyamaha samyaha jataha ataha samapyamaha samapyamaha yataha samyaha jataha vrishti वृष्टिः आगच्छति अतः आपणं न गच्छामि आपणं न गच्छामि यतः वृष्टि भविष्यति. यतः भविष्य वृष्टिः भविष्यति आपणं न गच्छामि. न भवति अपि अस्ति, भविष्यति अपि सम्यक् अस्ति. सो एकमेकं वाक्यं कृपया वदतु. सङ्गीता भगिनी,
अहं निद्रां I'm feeling sleepy. How do I say? Anubhavati. Aham nidram anubhavati. Ata bhavami. Aham nidram bhavami. Ata aham na pathami.
Bhagini, aham badami. Bhagini, aham badami.
Chintetva bhavati vadatu.
आरोग्यं सम्यक् अस्ति, अतः अहं रुचिकरं भोजनं खादामि. अहं रुचिकरं भोजनं खादामि यतः आरोग्यं सम्यक् अस्ति.
भवती अद्य शाटिका न क्रीणाति.
अद्य अहं लघु कारवेल्लस्य व्यञ्जनं कृतवती.
अस्तु, समीचीनं समीचीनं. करेला. अस्तु, परमेश्वरन् महोदय,
अहं सत्रं स्वीकरोमि यदा इदानीं वर्षा भवति. इदानीं वर्षति, अतः अहं स्वीकरोमि.
अहं छत्रं स्वीकरोमि यतः वृष्टि न वृष्टि भवति. इस् दट् वाट् यु सेड्? अतः वृष्टि भवति. अस्तु,
भगिनी अहं वदामि.
वदतु भगिनि.
यानं न भवति, अतः अहं कार्यालयं न गच्छामि.
कार्यालयं न गच्छामि यतः
यानं नास्ति.
यानं नास्ति, समीचीनं. कमला भगिनि,
अद्य कोरोना अस्ति, अतः कार्यालयं वाट् डू यू काल् फार् हालिडे आर्
अवकाशम् अस्ति न उद्घाटयति उद्घाटयन्ति
न उद्घाटयन्ति.
इफ् यु आर् सेयिङ्ग् कार्यालयं देन् उद्घाटयति एकवचनम्.
ओके, उद्घा कार्यालयम् उद्घाटयति
अथवा विरामः
अस्ति.
विरामः
अस्तु. देन् सङ्गीता भगिनी,
you have to tell me. I have some feeling to communicate, but I don't know the meaning. Okay, aham vanam vaman asti, ata
aham
vaman asti. I am short.
Okay, vamana
asmi. So I am not able to reach to the fan. Achha, asmi, and therefore I am not able to reach to the fan. Reach ka kya meaning hai?
Just say I am not praptum shaknomi, that I am not able to reach there. प्राप्तुं शक्नोमि.
भगिनी, यूस् लाडर्.
सोपानम् उपयुज्य
अहं व्यजनं प्राप्स्यामि. प्राक्षालयामि
प्रक्षालयामि
प्रक्षालयामि प्रक्षालयामि
I think what will be very useful, and there is one, I will have to tell you just one second. There is this practice session going on.
Mm-hmm.
In this is going from UAE. Somebody is going from UAE. And what I can do, I can pass you the details to that. I think it will be useful because what they do, it's like going for 10-day shibir. So you will have to be there every single day.
Okay.
And for 1 hour or 2 hours, I think if you join that, you will get so much practice.
Okay. Send us the link. I'm looking forward because we need practice.
So, I think it's saying it does not like it. I will pass in the WhatsApp group.
Okay.
So, join that and you will like it.
Oh, everyone. Good.
So, it's there on in your screen.
I can see. Yeah.
Okay, so we can, 12 days with... 12 days with...
Bani, is it free or paid one?
Free, it is free. All the Sanskrit mark is free, and I don't know whether fortunately or unfortunately, because people who are doing this as a job, it's not good for them, but for others, it's good that they can
come. In some places, they charge 1,000 rupees for this 10 days or 12 days. That's one.
This is online, so should be free.
All are online only, Bagini, now. Nobody can leave home. Mm-hmm. All programs are online only.
But we are continuing the next week. I think it is really good to join it. And today's lesson we can finish now. And just by doing the Shanti Mantra. And let's try doing together. So if we make some sort of rule, because after, I think, 6 months, we have still not got it into the tune. So... We'll say Sarve Bhavantu Sukhinaha, Sarve Santu Niramaya. So if you count a bad beat or something in your... Let's try it together.
Sarve
Bhadrani
Om Shanti Shanti
Dhanyavadah
Dhanyavadah
Namilamaha Shubhratri Shubhratri
Shubhratri
Shubhratri
Dhanyavad
Dhanyavad